अहम् ब्रह्मास्मि इति ज्ञानम् श्रेष्ठम् सर्वोत्तमम् परम् शिष्योऽसि मे प्रियतमा पन्था वक्ष्यामि ते हितम् न कर्तृत्वं न कर्माणि लोकस्य सृजति प्रभु न कर्मफलसंयोगं स्वभावस्तु प्रवर्तते स्वभावजेन हे प्राज्ञा निबद्धस्वेन कर्मणा उत्तिष्ठ हे प्राज्ञा युद्धाय कृतं निश्चयः अहं ब्रह्मास्मि इति ज्ञात्वा जित्वा शत्रून् विमोक्ष्यसि।